एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा चीनदेशस्य औपचारिकी भ्रमणे विद्यमानेन प्रधानमन्त्रिणा केपी शर्मा ओलिना राष्ट्रपतिना शी जिनफिङ इत्यनेन सह मेलवार्ता विहिता अस्ति प्रधानमन्त्रिणः ओलिनः चीनदेशस्य राष्ट्रपतेः शी इत्यस्य च मध्ये ह्यः सम्भूतायां मेलवार्तायां राष्ट्रपतिना शी इत्यनेन नेपालाय आसन्न नवाब्ज रूप्यकाणां सहयोग प्रदानस्य घोषणा विहिता अस्ति तदवसरे अनयोर्मध्ये नेपाल चीन सम्बन्धस्य पारस्परिक हितस्य अभिरूचेश्च विविधेषु विषयेषु विमृष्टम् इति परराष्ट्र मन्त्रालयस्य प्रवक्ता कृष्ण प्रसाद ढकालः असूचयत् राष्ट्रपतिः शी नेपालस्य वस्तूनां चीनदेशे आयाताय चीनदेशस्य निवेशकर्तृन् नेपाले निवेशं कर्तुं प्रोत्साहनाय च चीनदेशीयः सर्वकारः तत्परोऽस्तीति अगदत् तदवसरे प्रधानमन्त्री ओली नेपाल चीनदेशयोः सम्बन्धः पञ्चशीलस्य सिद्धान्ते आधृतोऽस्तीति चर्चयन् पारस्परिक सम्बन्धस्य मूलाधारः सार्वभौमिकी समानता पारस्परिकः विश्वासश्च वर्तते इति समस्पष्टयत् द्वयोः देशयोः कूटनीतिक सम्बन्धस्य स्थापनायाः सप्ततितम वर्षावसरे आगामिनि वर्षे नेपाल भ्रमणाय राष्ट्रपतये शी इत्यस्मै प्रधानमन्त्री ओली निमन्त्रणाम् प्रायच्छत् प्रत्युत्तरे राष्ट्रपतिः शी नेपाल भ्रमणस्य निमन्त्रणाय धन्यवादं व्याहरन् उपयुक्ते समये नेपाल भ्रमणं विधास्यते इति अवोचत् अत्रान्तरे नेपाल चीन देशयोः प्रधानमन्त्रिणोः उपस्थितौ व्यापार प्रवर्धने प्राविधिक सहयोगादान प्रदानादिषु विविधेषु नवषु विषयेषु च सहयोग सहकार्य सम्बन्धिनि सहमति पत्रे संविदा पत्रे च हस्ताक्षराणि सम्भूतानि सन्ति चीनदेशस्य औपचारिक भ्रमणे विद्यमानस्य प्रधानमन्त्रिणः ओलिनः चीनदेशस्य प्रधानमन्त्रिणः ली छ्याङ इत्यस्य च मध्ये मेलवार्तायाः अनन्तरं पारस्परिक सहकार्य सम्बद्धे सहमति पत्रे हस्ताक्षराणि विहितानि सन्तीति परराष्ट्र मन्त्रालयस्य प्रवक्ता कृष्ण प्रसाद ढकालः असूचयत् अत्रान्तरे प्रधानमन्त्रिणः ओलिनः चीनदेशस्य साम्यवादी दलस्य स्थायी समितेः अध्यक्षेण झाओ लेजी इत्यनेन च सह मेलवार्ता सम्भूता अस्ति तदवसरे अनयोर्मध्ये नेपाल चीन सम्बन्धस्य पारस्परिकाभिरूचेश्च संयुक्त विषयेष् विमृष्टम् आसीत् अनयोर्मध्ये नेकपा एमाले दलस्य चीनदेशस्य साम्यवादी दलस्य च गतिविधेः राजनीतिकादान प्रदानस्य विषये आगामिनः सहकार्यस्य विषये च विमृष्टमिति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितमस्ति प्रधानमन्त्री ओली चीनदेशस्य जनक्रान्तेः हुतात्म स्मारके पुष्पहारम् अर्पयित्वा श्रद्धाञ्जलिं प्रकटितवान् अस्ति प्रधानमन्त्री ओली ह्य बेजिङ नगरस्य तियानमेन प्रासाद स्थिते चीनदेशस्य जनक्रान्तेः हुतात्मनां स्मारके पुष्पहारम् अर्पयत् प्रधानमन्त्री ओली चीनदेशस्य समकक्षिणा ली छ्याङ इत्यस्य मैत्रीपूर्णायां निमन्त्रणायां चतुर्दिवसात्मकाय भ्रमणाय सम्प्रति चीनदेशे प्राप्तवान् अस्ति कार्यवाहक प्रधानमन्त्री प्रकाशमान सिंह देशस्य धार्मिक पर्यटनस्य प्रवर्धने विश्वप्रसिद्धायाः गढीमाई मेलायाः पृथक् परिचयोऽस्तित्यतः मेलामिमाम् अतिरिक्तां व्यवस्थितां विधातुं बलं ददाति बारा जनपदस्य बरियापुरस्थाने सञ्चल्यमानायाः पञ्चवर्षीयायाः गढीमाई मेलायाः स्थलगतावलोकनाय गढीमाई मन्दिरस्य दर्शनाय च ह्य गढीमाई मेला प्राप्तेन कार्यवाहक प्रधानमन्त्रिणा सिंहेन गढीमाई मेलया आविश्वं नेपालस्य धार्मिक पर्यटने पृथक् परिचय स्थापितोऽस्तीति अगदत् संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ नेपालस्य सूचना प्रविधि क्षेत्रे निवेशनस्य पर्याप्त मात्रायाम् अवसरोऽस्तीत्यतः निर्भयेन निवेशं कर्तुं बहुराष्ट्रिय निवेश संस्थानानि अनुरोणद्धि संचार मन्त्रालयस्य समन्वयेन टिकटक सामाजिक सञ्जालेन ह्य काष्ठमण्डपे आयोजिते वैद्युत सुरक्षा शिखर सम्मेलने मन्त्री गुरूङ नेपाले निवेशनस्य सुरक्षा अस्ति सूचना प्रविधि क्षेत्रम् आकर्षक निवेशनस्य विधा च वर्तते इत्यतः निर्भयेन निवेशं कर्तुं बहुराष्ट्रिय निवेश संस्थानानि आह्वयत् टिकटक सदृश बहुराष्ट्रिय संस्थानेभ्य नेपाले निवेशनस्य उपयुक्तं वातावरणं सृष्टम् अस्तीति सूचयन् सर्वकारस्य प्रवक्ता मन्त्री गुरूङ नैजक्षेत्रस्य बहुराष्ट्रिय निवेश संस्थानांश निवेशनस्य सुरक्षां कर्तुं सर्वकारः प्रतिबद्धोऽस्तीति अगदत्। मन्त्री गुरुङ वर्धमान सांजालिका अपराधस्य नियन्त्रणेन सभ्य समाजस्य निर्माणाय सहयोगः प्राप्स्यति इत्यतः सांजालिक सुरक्षायाः कृतेऽपि सर्वकारः प्रतिबद्धोऽस्तीति दुरावर्तयत्। स्थानीय स्तराणां रिक्तानां एकचत्वारिंशत पदानां कृते गत रविवासरे सम्पन्नस्य उपनिर्वाचनस्य अन्तिम परिणाम प्रकाशितोऽस्ति। मतपरिणामस्य अनुसारेण नेपाली कांग्रेस दलेन कीर्तिपुर नगरपालिकाया प्रमुखेण सहितेष् षोडश वडाध्यक्ष पदेष् विजय अधिगतो वर्तते। एवमेव नेकपा एमाले दलेन ग्रामपालिकाया एकस्मिन् अध्यक्ष द्वयो उपाध्यक्षयो पञ्चष् वडाध्यक्षेष् च विजय प्राप्तोऽस्ति। तथैव नेकपा माओवादी केन्द्रेण एकस्मिन् ग्रामपालिकाया अध्यक्षपदे द्वयो उपाध्यक्षयो नगरपालिकाया एकस्मिन् उपाध्यक्षपदे सप्तष् वडाध्यक्षपदेष् च विजय सम्प्राप्तोऽस्ति। उपनिर्वाचने जसपा दलेन द्वे एकीकृत समाजवादी दलेन राष्ट्रिय स्वतन्त्र दलेन नेमकिपा नाम्ना नेपाल मजदूर किसान दलेन च एकम एकम स्थानं विजितमस्ति। एकेन स्वतन्त्र प्रत्याशिना वडाध्यक्षपदे विजय प्राप्तोऽस्ति। नेकपा माओवादी केन्द्रेण स्थानीय स्तरस्य उपनिर्वाचनस्य परिणामेन स्वस्य दलेन अग्रेसारिताया विषया अग्रे वर्धयितुम् इप्सितम् अभियानञ्च अनुमोदितानि सन्तीति पुष्टीभूतम् वर्तते इति ज्ञापितमस्ति। उपनिर्वाचनस्य समेषां मतपरिणामानां सार्वजनिक भवनस्य पश्चात् ह्य वक्तव्यं प्रकाशयन् अध्यक्ष पुष्पकमलदाहाल प्रचण्ड निर्वाचित जनप्रतिनिधिनां संख्याया जनमतस्य च अनुसारेण दलेन उत्साहजनिका सफलताधिगता अस्तीति अवदत्। अध्यक्ष प्रचण्ड जनविश्वासस्य अतिरिक्त सुदृढीकरणेन जनताया जीवनस्तरस्य परिवर्तनस्य अभियानं दृढतापूर्वकम् अग्रे वर्धिष्यते इति च प्रतिबद्धतां व्यक्तवान्। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं राष्ट्रिय मानवाधिकार आयोगेन गतार्थिक वर्षस्य वार्षिकं प्रतिवेदनं प्रस्तुतमस्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य आयोजिते कार्यक्रमे आयोगस्य अध्यक्ष तपबहादुर मगर राष्ट्रपतेः समक्षं प्रतिवेदनमिदं प्रास्तौत्। तदवसरे राष्ट्रपतिः पौडेलः मानवाधिकाराणां सम्मानेन संरक्षणेन संवर्धनेन चैव देशे विधेः शासनस्य अवधारणा बहुदलीय लोकतन्त्रस्य शासनप्रणाली च सुदृढे भवतः इति प्रावोचत्। राष्ट्रपतिः पौडेलः आयोगः सदैव जनतायाः कृते आस्थायाः विश्वासस्य च केन्द्रं भवतीति विश्वासम् अभिव्यनक्। संस्कृति पर्यटन नागरिक उड्डयन मन्त्री बद्री पाण्डे निगदति विभिन्नै देशैस्सह सांस्कृतिक सम्बन्धेन आत्मीयतायाम् अतिरिक्त दृढता प्राप्तुं शक्यते। काष्ठमण्डपान्तरराष्ट्रिय बालनाट्य महोत्सवस्य ह्य उद्घाटनं विदधान मन्त्री पाण्डे विभिन्नानां देशानां नाट्यकलानां प्रदर्शनेन प्रस्तुत्या च परस्परं संस्कृतीनां साक्षात्कारस्य अवसरः प्राप्यते इति अभाषत। सहकारी संस्थायाः वित्तापचलनस्य प्रकरणे प्रकथन ग्रहणाय राष्ट्रिय स्वतन्त्र दलस्य सभापतिः रवि लामिछाने ह्य चितवन जनपदं प्रापितोऽस्ति। चितवन सहारा बहुद्देशीय सहकारी संस्थायाः वित्तापचलनस्य प्रकरणे अनुसन्धानाय लामिछाने काष्ठमण्डपात् विमानस्य माध्यमेन चितवन जनपदं प्रापितोऽस्ति। चितवन सहारा सहकारी संस्थायाः वित्तापचलनस्य प्रकरणे पीडितहि जनहि पश्चात्तन समये रासोपा दलस्य सभापतिना लामिछाने विधेन सहितानां दशानां जनानां विरुद्धे न्यायिक निवेदनं प्रदत्तम् आसीत् इति समाचारः।